सः सा त्वम् अहम्
सा मम भगिनी
सः मम भ्राता
अहं तां संस्कृतं पाठयामि
अहं तं गानं श्रावयामि
अहं तया सह संस्कृते आलपामि
अहं तेन सह संस्कृते आलपामि
अहं तस्यै गानपुस्तकम् उपहरामि
अहं तस्मै संस्कृतपुस्तकम् उपहरामि
अहं तस्याः दूरे स्थातुं न शक्नोमि
अहं तस्मात् दूरे स्थातुं न शक्नोमि
अहं तस्याः भ्राता
अहं तस्य भगिनी
अहं तस्यां स्निह्यामि
अहं तस्मिन् स्निह्यामि
त्वं गोपालः
अहं माधवः
अहं त्वां जानामि
त्वं मां जानासि
अहं त्वया सह आलपामि
त्वं मया सह आलपसि
अहं तुभ्यं गालिं न ददामि
त्वं मह्यं गालिं न ददासि
अहं त्वद्दूरे स्थातुं न शक्नोमि
त्वं मत्दूरे स्थातुं न शक्नोषि
अहं तव बन्धुः
त्वं मम बन्धुः
अहं त्वयि विश्वासं करोमि
त्वं मयि विश्वासं करोषि।